तेन सेतुना रामः लक्ष्मणः वायुपुत्रादयः वानराः च लंकां जग्मु तत्र विभीषणः नाम रावणस्य भ्राता धर्मवान सन् राघवस्य मित्रः बभूव अथ वानराणाम् असुराणाम् च महद् युद्धम् आस रामः रावणम् आचक्राम तम् च जघान लक्ष्मणः अपि हनुमान अन्ये च राममित्राः बहून् अन्यान् असुरान् मारयां चक्रुः ततः रामः दशाननस्य पुरीं जिगाय सीतां च प्रियतमां स्वजायां पुनः अवाप